अयि छात्राः अस्मिन् अधिवेशने भवतां स्वागतम्। अस्य अधिवेशनस्य पाठनीयः विषयः भवति संस्कृतस्य वर्णविज्ञानम्। भारतीयपरम्परायां तत्र शैवपरम्परा शाक्तपरम्परा इति परम्पराद्वयं वर्तते। शाक्तपरम्परातः वर्णः गृह्यन्ते। अस्माकं शैशवे ये वर्णः अधीताः ते वर्णः मातृशक्तितः गृहीताः सन्ति। अ आ ह्रस्वै दीर्घै ह्रसौ दीर्घौ रु रु लृ ए ऐ ओ औ इति स्वरवर्णः। तथैव क कारात् आरभ्य हकारं यावत् व्यञ्जनवर्णः। अनुस्वारः विसर्गः अनुनासिकः वा चन्द्रबिन्दुः उपधमानीयः एते अजोगबाहाः वर्णाः सन्ति। छात्रः शिशुः चट्टशालितः यदा अध्ययनं करोति तदा एवं वर्णान् स जानाति। परन्तु यदा गुरुकुले पाठशालायां अध्ययनं करोति तत्र व्याकरणसम्मतं वर्णविज्ञानं जानाति। पाणिनिः यान् वर्णान् दर्शितवान् दृष्टवान् ते वर्णाः व्याकरणस्य सङ्केतस्वरूपाः सन्ति। महेश्वरपरम्परातः पाणिनिः चतुर्दशसूत्राणि सङ्गृहीतवान्। तानि सूत्राणि वेदवत् प्रामाणिकानि। यथा श्रुतेः प्रामाण्यं तथा पाणिनी गृहीतानि तानि चतुर्दश माहेश्वरसूत्राणि वर्णसमाम्नायः इति परिचयं लभन्ते। नामो नाम वर्णभेदः अक्षरभेदः एवं यानि चतुर्दशसूत्राणि गृहीतानि तैः चतुर्दशभिः सूत्रैः सकलं व्याकरणं नियन्त्रितं वर्तते। पाणिनेः यानि चतुस्सहस्रसङ्ख्यकानि सूत्राणि सन्ति तेषु एतेषां चतुर्दशमहेश्वरसूत्राणां प्रभावः वर्तते। एवं यानि चतुर्दशमहेश्वरसूत्राणि सन्ति तानि एवं भवन्ति। अयूण् रिल्रोक् ए ओम् ऐ औच् हयवरट् लाण् यमवर्णनं झभय घडधस् जबगडधस् खफ छठ थ चट तव कपय ससर हळ एवं चतुर्दश सूत्राणि। एतानि सूत्राणि उपजीव्य द्विचत्वारिंशत् प्रत्याहारसूत्राणि सन्ति यथा अच् हळ इक् एवं प्रत्याहारसूत्राणि सन्ति। प्रत्याहारसूत्राणि नाम किम्? अर्थात् अनेकेषां वर्णानां संक्षेपेण कथनं प्रत्याहारः। प्रत्याह्रियन्ते संक्षिप्यन्ते वर्णाः अस्मिनिति प्रत्याहार यथा अच् अत्र सर्वे स्वरवर्णाः सन्ति यथा हळ् अत्र सर्वे व्यञ्जनवर्णाः सन्ति एवं तत्र प्रत्याहार सूत्रेषु एतेषां प्रयोगः व्याकरणग्रन्थे दृश्यते तथैव अजोगवाह वर्णः यथा अनुस्वारः तत्र स्वरवर्णात् अनन्तरम् अनुस्वारस्य प्रयोगः अथवा विसर्गस्य प्रयोगः अथवा अस्माभिः ज्ञातः चन्द्रबिन्दु अनुनासिकवर्णस्य प्रयोगः अन्यस्यापि प्रागर्धविसर्गस्यापि प्रयोगः यथा अक्क इति अस्मात् पूर्वं विसर्गः अप्प इति अस्मात् पूर्वं विसर्गः एवम् उपध्मानीयस्य जिह्वामूलीयस्य वर्णस्यापि प्रयोगः दृश्यते एतादृशः स्वरवर्णः व्यञ्जनवर्णः अजोगबाहवर्णः वर्णप्रकरणेषु गृह्यन्ते छात्राः के स्वरवर्णः कथं ते स्वराः स्वयं राजन्ते इति स्वराः कस्यापि वर्णस्य साहाज्यं विना तेषाम् उच्चारणं भवति यथा अ ई उ ऋ लृ एते स्वह्रस्वस्वराः सन्ति ए ऐ ओ औ एतानि सन्ध्यक्षराणि अतः वर्णद्वयस्य संयोगेन अ प्लस् इ ए अ प्लस् उ ओ एवम् अ प्लस् ओ औ अ प्लस् ए ऐ एवम् ए ऐ ओ औ इति सन्ध्यक्षराणि भवन्ति स्वरवर्णाः स्वयं राजन्ते व्यञ्जनवर्णाः के स्वरेण स्वरस्य साहाज्येन येषाम् उच्चारणं भवति ते व्यञ्जनवर्णाः अर्थात् स्वरं विना येषां विगतं अञ्जनं प्रकाशलक्षणं विना स्वरं व्यञ्जनवर्णाः नो उच्चार्यन्ते यथा क इति उच्यते तत्र क इति व्यञ्जनवर्णः वर्तते तत्र अकारो वर्तते अकारः अस्ति इति हेतो क इति उच्चार्यते तथैव अजोगवाः वर्तन्ते अनुस्वारः विसर्गः चन्द्रबिन्दुः अथवा अनुनासिकः उपध्मानीयः जिह्वामूलीयः उपध्मानीयः इति अर्धविसर्गसदृशः जिह्वामूलीयः इति अर्धविसर्गसदृशः एवं वर्णः स्वरः व्यञ्जनवर्णः अजोगबाहाः सन्ति एवं माहेश्वरसूत्राणां ये वर्णाः सन्ति तैः वर्णैः सकलं व्याकरणं नियन्त्रितं वर्तते यथा इको जणचि अत्र ईक् यण् अच् ईक् इति प्रत्याहारे ई ऊ रु लृ यण् इति प्रत्याहारे तत्र यतः आरभ्य यवरर् ते वर्णाः तत्र हयवरट् यवरट् लण् इति वर्णाः सङ्गृहीताः वर्तन्ते अच् अत्र सर्वे स्वरवर्णाः गृह्यन्ते तर्हि स्वरवर्णानाम् अथवा व्यञ्जनवर्णानां संक्षेपेण बोधनार्थं प्रत्याहारः गृह्यते यथा ईक् इति प्रत्याहारः यण् इति प्रत्याहारः अच् इति प्रत्याहारः तैः प्रत्याहारैः व्याकरणस्य सूत्राणि निर्मितानि एवं तेषां सूत्राणां प्रयोगेण कथं भाषायाः प्रयोगः स्यात् शब्दस्य प्रयोगः स्यात् तद्विषये पाणिनिः वैज्ञानिकदृष्ट्या यत् चिन्तनं प्रकटितवान् तत् अद्यापि आश्चर्यं जनयति चमत्कारं जनयति अद्भुतः अयम् उपायः एतादृश उपायः न केनापि स्वीकृतः पूर्वाचार्येभ्यः पूर्वग्रन्थेभ्यः तत्त्वानि संगृह्य यथा एवं चतुस्सहस्रसूत्रमध्ये यथा स रचितवान् तद् विलोक्य सर्वे आश्चर्यान्विताः भवन्ति। किमिदं शास्त्रं यस्मिन् शास्त्रे वर्णप्रकरणस्य इयं या भूमिका वर्तते सा भूमिका अद्य एव आलोचनीया भवति समेषां भवतां समक्षं। संस्कृतस्य यत् वर्णवैभवं तद् आलोचितं श्रीमतां समक्षम्। एवम् एतादृशस्य वर्णप्रकरणस्य प्रयोगः सन्धिसूत्रेषु वर्तन्ते, धातुप्रत्ययजोगे वर्तते एवं प्रातिपदिकसूपिति योगे वर्तते, शब्दस्य निर्माणे, कृदन्तस्य निर्माणे, तद्धितस्य निर्माणे, सर्वत्र प्रत्याहारसूत्राणाम् उपयोगः वर्तते। एवं तद्दृष्ट्वा वयं पाणिनिं न विस्मरामः। अतैव भवतां समक्षं वर्णविज्ञानस्य भूमिकाम् उक्त्वा मन्ये मनसि महान् आनन्दः। अतः समेषां भवतां पुरतः धन्यवादं ज्ञापयित्वा विरमामि।